राम श्रीमद्भागवत महापुराण मूल पाठ श्रीमद्भागवत महापुराण पंचम स्कंध 26 अध्याय 26 ट्रेक में
ओम नमो भगवते वासुदेवाय श्रीमद्भागवत महापुराणम पंचम स्कंध अथ प्रथमोध्याय राजोवाच प्रियव्रतो भागवत आत्मा रामः कथं मुने गृहे रमत यन्मूलः कर्मबन्धः पराभवः प्रियव्रतो भागवत आत्मा रामः कथं मुने गृहे रमत यन्मूलः कर्मबन्धः पराभवः ननूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति महतां खलु विप्रर्षे उत्तमश्लोकपादयोः छाया निर्वृतचित्तानां न कुटुम्बे स्पृहा मतिः संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु सक्तस्य यत्सिद्धिरभूत् तृष्णे च मतिरच्युता श्रीशुक उवाच बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवत परमहंसदयितकथां किञ्चिदन्तराय विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति यर्हि वावह राजन् स राजपुत्रः प्रियव्रतः परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगत परमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणो वनितलपरिपालनायां नाथप्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशितसकलकारकक्रियाकलापो नैवाभ्यनन्दद् यद्यपि तदप्रत्याम्नातव्यम् तदधिकरण आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः अथः भगवानादिदेव एतस्य गुणविसर्गस्य परिब्रह्मणानुध्यानव्यवसितसकलजगदभिप्राय आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः स्वभवनादवततार स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममरपरिवृढैरभिपूज्यमानः पथि पथि च वरुथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प तत्र वायिनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह पिता पुत्राभ्यामवहिताञ्जलिरुपतस्थे भगवानपि भारसतदुपनीतार्हणः सूक्तवाक्येनासितरामुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं सदय हासावलोक इति होवाच श्रीभगवानुवाच निबोधता तेदमृतं ब्रवीमि मासूयितुं देवमर्हस्य प्रमेयम् वयं भवस्ते तत एष महर्षिर्वहाम सर्वे विवशायस्य दिष्टम् न तस्य कश्चित् तपसा विद्यया वा न योगवीर्येण मनीषया वा नैवार्थधर्मै परतस्वतो वा कृतं विहन्तुं तनुभृद्विभूयात् भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय सुखाय दुःखाय च देहयोगमव्यक्तदिष्टं जनताङ्गधत्ते यद्वा चितन्त्यां गुणकर्मदामभिः सुदुस्तरैर्वत्स वयं सुयोजिताः सर्वे वहामो बलिमीश्वराय प्रोता नसीवद्विपदे चतुष्पदः ईशाभिसृष्टं यवरुन्ध्महेङ्ग दुःखं सुखं वा गुणकर्मसङ्गात् आस्थाय तत्तद्यदयुङ्क्तनाथश्चक्षुस्मतान्धा इव नीयमानाः मुक्तोऽपि तावद्विप्रियात् स्वदेहमारब्धमश्नन्नभिमानशून्यः यथानुभूतं प्रतियात निद्रः किं त्वन्यदेहाय गुणान्न वृङ्क्ते भयं प्रमत्तस्य वनेष्वपि स्यात् यतः स आस्ते सह षट्सपत्नः जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रमः किं नु करोत्यवद्यम् यः षट्सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् अत्येति दुर्गाश्रितौर्जितारीन् क्षीणे सुकामं विचरेद्विपश्चित् त्वं त्वब्जनाभाङ्ग्रिसरोजकोश दुर्गाश्रितोऽज्ञर्जितषट्सपत्नः भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्तसङ्गः प्रकृतिं भजस्व श्रीशुक उवाच इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतया वनतशिरोधरो बाढमिति स बहुमानमुवाह भगवान अपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोर विषममभि समीक्षमाणयोर आत्मसमवस्थानम अवांग मनसम क्षयमव्यवहृतं प्रवर्तयन् न गमत् मनुरपि परेण इवं प्रतिसंधित मनोरसः सुरर्षिवरानुमतेनात्मजमखिल धरामण्डल स्थितिगुप्तया आस्थाप्य स्वयमति विषम विषय विष जलाशयाशाया उपर राम इतिह वावस जगतीपतिरीश्वरेच्छयाधिनिवेशित कर्माधिकारोऽखिल जगद्बन्धध्वंसन परानुभावस्य भगवतादिपुरुषस्याङ्घ्रियुगला नवरतध्यानानुभावेन परिरन्धितकषायाशयो वदातोऽपि मानवर्धनो महतां महीतलमनुशशास अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बरिस्मतीं नाम तस्यामोह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयां बभूव कन्यां च यवीयसी मूर्जस्वतीं नाम आग्निध्रेद्मजिह्वयज्ञबाहु महावीर हिरण्यरेतो घृतपृष्ठ सवन मेधातिथि वीतिहोत्र कवय इति सर्व एवाग्निनामानः एतेषां कविर्महावीरः सवन इति त्रया आसन्नूर्ध्वरेतसस्तात्मविद्यायामर्भभावादारभ्य कृतपरिचयाः पारमहंस्यमेवाश्रममभजन् तस्मिन्नुह वा उपशमशीलाः परमर्षयः सकलजीवनिकाया वासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलित परमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः अन्यस्यामपि जायायां त्रयः पुत्राः सन्नुत्तमस्तामसो रैवत इति मनुवन्तराधिपतयः एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहताखिल पुरुषकारसारसंभृतदोर्दण्डयुगला पीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो बर्हिस्मत्याश्चानुदिनमेधमान प्रमोद प्रसरण यौषिण्यव्रीडा प्रमुषित हासावलोकरुचिरक्ष्वेल्यादिभिः पराभूयमान विवेकैवानवबुध्यमान इव महामना बुभुजे यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्तद्दिनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्तकृत्वस्तरणिमनुपर्यक्रामद्वितीयैव पतङ्गः ये वा ऊह तद्रथचरणनेमिकृतपरिखातास्ते सप्तसिन्धव आसन् यत एव कृताः सप्तभुवो द्वीपाः जम्बूप्लक्षशाल्मलिकुशक्रौञ्च शाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात् पूर्वस्मादुत्तर उत्तरो यथासङ्ख्यम् द्विगुणमानेन बहिः समन्तत उपकृप्ताः क्षारोदेक्षुरसोद सुरोद घृतोद क्षीरोद दधिमण्डोद शुद्धोदाः सप्तजलधयः सप्तद्वीपपरिखा इवाभ्यन्तरद्वीपसमाना एकैकस्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक् परित उपकल्पितास्तेषु जम्वादिषु बहिस्मतीपतिरनुव्रतानात्मजानाग्निध्रेत्मजिह्व यज्ञबाहु हिरण्यरेतो घृतपृष्ठमेधातिथिवीतिहोत्र संज्ञान् यथासङ्ख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे दुहितरं चोर्जस्वतीं नामोशनसे प्रायशद् यस्यामासीद्देवयानी नाम काव्यसुता नैवं विदः पुरुषकार ऊरुक्रमस्य पुंसां तदङ्घ्रिरजसाश्चित्सद्गुणानां चित्रं विदूर विगतः सकृदा दधीत यन्नामधेयमधुना स जहाति बन्धम् स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेण निर्वृतमिवात्मानम् मन्यमान आत्मनिर्वेद इदमाह अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैः अविद्यारचितविषमविषयान्धकूपे तदलम् अलम् अमुष्या वनिताया विनोदमृगं मां धिग् धिग् इति गर्हयाञ्चकार परदेवता प्रसादाधिगतात्मप्रत्यवमर्षेणानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीत हरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार तस्य वा एते श्लोकाः प्रियव्रतकृतं कर्म कोऽनुकुर्याद्विनेश्वरम् योनेम निम्नैरकरोच्छायाम् घ्नन् सप्तवारिधीन् भूसंस्थानम् कृतम् येन सरिद्गिरिवनादिभिः सीमा च भूतनिर्वृत्त्यै द्वीपे द्वीपे विभागशः भौमम् दिव्यम् मानुषम् च महित्वम् कर्मयोगजम् यश्चक्रे निरयौपम्यम् पुरुषानुजनप्रियः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।